एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। नेपाले गतदिने अतिरिक्तेषु षड्सहस्रेषु पञ्चविंशत्यधिक काष्ठशते च जनेषु कोरोना विषाणो संक्रमणं पुष्टीभूतं वर्तते। ह्यः चतुर्विंशते घण्टानाम् अवधौ पञ्चसहस्राणि चतुरुत्तर नवशतं च जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। गतदिवसं यावत् प्राप्तानां तथ्याङ्कानाम् अनुसारेण कोरोना विषाणो मुक्तानां जनानाम् अंकमानः प्रतिशतं 81 स्थिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। आराष्ट्रम् ह्यः कोरोना संक्रमणात् 75 जनाः मृता। अनेन सह कोरोना विषाणो संक्रमणेन नेपाले मृतानां जनानां संख्या योगतः 70,63,67 च प्राप्तेति मन्त्रालयोऽसौ सूचयति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सम्प्रति नेपाले 100,149,8 सक्रिय संक्रान्ताः जनाः वर्तन्ते। नेपालेऽपि कृष्ण विकाराङ्कुरस्य रुग्णाः प्राप्ताः सन्ति। नेपाले ह्यस्तनावधि कृष्ण विकाराङ्कुरस्य 10 रुग्णाः पुष्टीभूताः सन्ति। एतेषु 8 जनाः मन्त्रालयस्य सम्पर्के सन्ति, अन्य जनद्वयं सम्पर्के नागतमिति स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता डा कृष्ण प्रसाद पौडेलः अबोधयत्। प्रवक्तुः पौडेलस्य अनुसारेण कृष्ण विकाराङ्कुरस्य रुग्णाः नेपालगंज वीरगंज काष्ठमण्डपानां वर्तन्ते। कोविड 19वत् संक्रमणशीलं न सदपि 45-65 वर्षाणां वयस्समूहे विद्यमानेषु शरीरस्य रोग प्रतिरोध क्षमतायाः दुर्बलेषु बहुप्रकारकाणां प्रतिजैविकानाम् अधिकशक्तियुतानां वा औषधानां बहुकालपर्यन्तं प्रयोगं कुर्वत्सु वा जनेषु कृष्ण विकाराङ्कुररोगः दृष्टोस्तीति चिकित्सकाः वदन्ति। अत्रान्तरे कृष्ण विकाराङ्कुरस्य संक्रमणेन कैलाली जनपदे 1 जनः मृतो वर्तते। सेती प्रादेशिक चिकित्सालये उपचाररतः वर्धगोरिया ग्रामपालिकायाः 65 वर्षीयः पुरूषः मृतः इति चिकित्सालयो ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्रालयः नेपाले कोविड 19 किमपि नवीनं स्वरूपं प्राप्तं नास्तीति स्पष्टीकरोति। मन्त्रालयस्य प्रवक्ता डा कृष्ण प्रसाद पौडेलः ह्यो विज्ञप्तिं प्रकाश्य नेपाले नवीनं स्वरूपं प्राप्तमिति निगद्य विभिन्नेषु अन्तर्राष्ट्रिय संचार माध्यमेषु प्रचारितं निराधार समाचारं प्रति गभीरं ध्यानाकर्षणं सम्भूतमिति ज्ञापयन् नेपाले किमपि नवीनं स्वरूपं प्राप्तं नास्तीति स्पष्टीं कृतवान्। सम्प्रति नेपाले कोविड 19 भिन्न प्रकारक सम्बद्ध वर्गे समाविष्टे अल्फा डेल्टा नामदेह विषाणु स्वरूपे स्तः। पश्चात्तन समये दृष्टं कोविड 19 नवीनं केवलं डेल्टा विषाणु स्वरूप मात्र सक्रियमस्तीति असौ अबोधयत्। अत्रान्तरे विश्व स्वास्थ्य संगठनेनापि नेपाले नवीन स्वरूपस्य विषय ज्ञातो नास्तीति स्पष्टीकृतं वर्तते। काष्ठमण्डप महानगरपालिकया गतदिनात् एण्टीजेन विधेः परीक्षणं पुनः नैरन्तर्येण सञ्चालितं वर्तते। कोविड 19 महामार्याः इदानीमपि अनियन्त्रणस्य कारणात् एतस्य प्रभावस्य न्यूनीभवनाभावं यावत् निरन्तरं एण्टीजेन विधेः परीक्षणाय विहितस्य पूर्वकार्यस्य अनुसारेण एतत् परीक्षण कार्यं सञ्चालितमिति नगरपालिकायाः जनस्वास्थ्य विभागस्य प्रमुख हरिबहादुर कुंवरः अज्ञापयत्। दृष्ट कोविड लक्षणान् रुग्ण सम्पर्कान्वेषणे समाविष्टान् अग्रपंक्तौ स्थित्वा कार्यरतान् निषेधाज्ञाया समये कार्यं विदधान् संकटापन्नाञ्च सर्वान् लक्षितवर्गान् मत्वा परीक्षणं निरन्तरं सञ्चालितमिति असौ अवोचत्। आगामिनः आर्थिक वर्षस्य आयव्ययके उल्लिखितानां शुल्क सौविध्यस्य अन्येषां सौविध्यानाञ्च क्रियान्वयनं प्रारब्धं वर्तते। अर्थमन्त्रालयस्य उद्योग वाणिज्यापूर्ति मन्त्रालयस्य खाद्य व्यवस्था व्यापार संस्थानस्य साल ट्रेडिंग लिमिटेड संस्थानस्य च ह्य उपविष्टे उपवेशे सर्वकारेण आयव्ययकस्य माध्यमेन निषेधाज्ञाया अवधौ प्रदीयमान शुल्क सौविध्यानां सामग्रीणां विवरणम् एतासां मूल्यं विक्रय वितरण स्थानञ्च निर्धार्य साल ट्रेडिंग कार्पोरेशन स्थानेन खाद्य व्यवस्था व्यापार संस्थानेन च ज्ञापयितुं निर्णीतं वर्तते। आयव्ययक वक्तव्ये निषेधाज्ञायाः अवधौ खाद्य व्यवस्थाया व्यापार संस्थानात् साल ट्रेडिंग संस्थानात् च विक्रियमाणानां तण्डुल पिष्ठा सुपलवण खाद्य तैल शर्करा पाचन इन्धनानां विक्रय मूल्य प्रतिशतं 20% शुल्क सौविध्यं प्रदातुम् उल्लिखितम् आसीत्। द्वितीय प्रदेशस्य मुख्यमन्त्रिणा लालबाबु राउत इत्यनेन संघीय सर्वकारेण सम्प्रत्येव प्रस्तुते आगामिनः आर्थिक वर्षस्य आव्ययके शिला शिलाखण्ड बालुका प्रवृत्तीनां खनिज सामग्रीणां विहिताम् निर्यातस्य घोषणां संशोधयितुम् अनुरुद्धं वर्तते। मुख्यमन्त्रिणा राउत इत्यनेन ह्यः विज्ञप्तिं प्रकाश्य द्वितीय प्रदेशस्य 70 जनपदात् पर्सा जनपदं यावत् चुरे पर्वत क्षेत्रस्य तराई मधेस क्षेत्रस्य च सुरक्षा कवचस्य रूपेण एताः खनिज सामग्र्यः सन्ति। हेतोः संरक्षणस्य अपेक्षया उत्खननस्य संघीय सर्वकारस्य नीत्या क्षेत्रमेतत् मरुभूमौ परिणश्यते इति सावधानी कृतम् अस्ति। गण्डकी प्रदेश सभाया सदस्य कृष्ण थापा पदमुक्तः सम्भूतोऽस्ति। राष्ट्रिय जनमोर्चा दलस्य प्रदेश सभा सदस्यस्य थापाविदस्य दलात् निष्कासनस्य पत्रस्य प्रदेश सभा सचिवालये पंजीकरण मनु ह्यः सभामुखेन नेत्रनाथ अधिकारिणा प्रदेश सभाया उपवेशे पंजीकारित पत्रस्य विषये ज्ञापितम् आसीत्। दलस्य निर्णयस्य विपरीततया कार्यं विहितमिति आरोप्य थापा दण्डितोऽस्तीति राष्ट्रिय जनमोर्चा दलेन ज्ञापितम् वर्तते। सर्वकारस्य विरूद्धे आनीतः अविश्वासस्य प्रस्तावः दलेन समर्थितः सन्नपि थापाविदेन दलस्य निर्देशनस्य विपरीततया एमाले दलाय सहयोगः विहितः आसीत्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् निर्वाचनायोगेन अस्यैव ज्येष्ठस्य 17 दिवसे लुम्बिनी प्रदेशे सम्पन्नस्य राष्ट्रिय सभाया सदस्यस्य उपनिर्वाचनस्य परिणामेन सहितं प्रतिवेदनम् ह्यः प्रस्तुतमिति आयोगस्य प्रवक्ता राजकुमार श्रेष्ठः ज्ञापयति। उपनिर्वाचने नेपाली कांग्रेस दलस्य प्रत्याशी दृगनारायण पाण्डेयः निर्वाचितः आसीत्। काष्ठमण्डपो उपत्यकायां मासं यावत् मेलञ्चि नद्यः जलं न वितीर्यते। आयोजनाय भूमिगत सरणी पूर्णतः निरीक्तीकृत्य निरीक्षमाणास्तीति कारणेन जलवितरणम् अवरोच्यमानं वर्तते। भूमिगत सरण्यः निरीक्षणे कस्यामपि समस्यायाम् अदृष्टायं सत्यं पुनः जलस्य आनयनाय आसन्न 30-40 दिनानि अपेक्ष्यन्ते इति मेलञ्चि पेयजल विकास समितेः सूचनाधिकारी राजेन्द्र प्रसाद पन्तः अज्ञापयत्। वर्षद्वयात् पूर्वं चीन देशीयेन सिनो हाइड्रो निर्माण संस्थानेन सह विहितायाः संविदाय समय कार्यविदौ भूमिगत सरण्यं जलं प्रपूर्य पुनः रिक्तीकृत्य निरीक्षिष्यते इत्युल्लिखितम् आसीत्। एतदनुसारेणैव सरणी रिक्तीक्रियमाणा वर्तते। सुदूर पश्चिम सर्वकारेण महाकाली चिकित्सालयं प्रादेशिक चिकित्सालयं कारयितुं निर्णीतं वर्तते इति समाचारः।